विष्णु सहस्रनाम महाभारत के अनुशासन पर्व में है। भीष्म पितामह ने युधिष्ठिर के सामने इसका पाठ दिया। इस स्तोत्र में वेद काल से लेकर पुराण काल तक ईश्वर के लिए जितने भी नाम का उपयोग हुआ है उनका संकलन है। विष्णु सहस्रनाम में शिव के नामों को भी विष्णु का पर्याय मान लिया गया है। लोकमान्य तिलक इसे भक्तिकोश कहते थे। भक्तगण आज भी इस स्तोत्र का नियमित पाठ करते हैं।
ओम नमो भगवते वासुदेवाय। ओम शिवम विष्णुर्वषट्कारो भूतभव्य भवत् प्रभुः भूतकृत् भूतवृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानां परमागतिः अव्ययपुरुषः साक्षी चेतनज्ञोऽक्षर एव च योगो योगविदान्नेता प्रधानपुरुषेश्वरः नारसिंहवपुश्रीमान् केशवपुरुषोत्तमः सर्वशर्वशिवस्थाणुर्भूतादिर्निधिरव्ययः सम्भवो भावनो भर्ता प्रभव प्रभुरीश्वरः स्वयंभू शंभुरादित्य पुष्कराक्षो महास्वनः अनादिधनो धाता विधाता धातुरुत्तमः अप्रमेयो ऋषिकेश पद्मनाभोमर प्रभुः विश्वकर्मा मनुस्पर्शा स्थविष्ठस्थविरोध्रुवः अग्राह्य शाश्वत कृष्णो लोहिताक्ष प्रदर्दनः प्रभूतस्थिकोधाम पवित्रं मंगलं परम् ईशानप्राणदप्राणो ज्येष्ठश्रेष्ठ प्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वरो विक्रमी धन्वी मेधावी विक्रमक्रमः अनुत्तमो दुराधर्श कृतज्ञ कृतिरात्मवान् सुरेशशरणं शर्म विश्वरेता प्रजाभवः अहस्संवत्सरो व्याल प्रत्ययसर्वदर्शनः अजस्सर्वेश्वरसिद्धसिद्धिस्सर्वाभिरच्युतः वृषाकपिरमेयात्मा शर्वयोगविनिःसृतः वसुर्वसुमनः सत्यस्समात्मा संवितस्समः अमोघः पुण्डलीकाक्षो वृषकर्मा वृषाकृतिः रुद्रो बहुशिला बभ्रुर्विश्वयो निश्विश्रवाः अमृतशाश्वतस्थाणुर्वरारोहो महातपाः सर्वगस्सर्वविद्धानुर्विश्वक्सेनो जनार्दनः वेदो वेदविदव्यङ्गो वेदाङ्गो वेदविद्कविः लोकाध्यक्षसुराध्यक्षो धर्माध्यक्षकृताकृतः चतुरात्मा चतुर्व्यूहश्चतुर्दंशश्चतुर्भुजः नाजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः अनघो विजयो जेता विश्वयोनि पुनर्वसुः उपेन्द्रो वामनः प्रांशुरमोघश्रुचिरूर्जः अतीन्द्रः सङ्ग्रहस्सर्वो दृढात्मा नियमो यमः वेद्यो वैद्यस्वरा योगी वीरः माधवो मधुः अतीन्द्रियो महामायो महोत्साहो महाबलः महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः अनिर्देश्यवपुश्रीमानवेयात्मा महादृजुग महेश्वासो महीभर्ता श्रीनिवासः सदाङ्गतिः अनिरुद्धसुरानन्दो गोविन्दो गोविन्दाम्बलिः महीषिर्दमनोहंसः सुवर्णो भुजगोत्तमः हिरण्यनाभसुतपा पद्मनाभः प्रजापतिः अमृत्युस्सर्वदृक्सिंहः सन्धाता सन्धिमान् स्यः अजो दुर्मर्षणशास्ता विश्वरात्मा सुरारिः गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः निमिषो निमिषस्रग्रीवाचस्पतिरुदारधीः अग्रणीयग्रामणी श्रीमान् न्यायो नेता समीरणः सहस्रमूर्धा विश्वात्मा सहस्राक्षसहस्रपाद आवर्तनो निवृतात्मा संवृतः सम्प्रमर्दनः अहस्संवर्धको वह्निरनिलो धरणीधरः सुप्रदात प्रसन्नात्मा विश्वधृग् विश्वभुग्विभुः सत्कर्ता सत्कृतस्ताधुर्जन्धुर्नारायणो नरः असङ्ख्येयो प्रमेयात्मा विशिष्टशिष्टकृचिः सिद्धार्थसिद्धसङ्कल्पसिद्धिदस्सिद्धिसाधनः वृषाहि वृषभो विष्णुर्विषपर्वा वृषोदरः वर्धनो वर्धमानश्च विविक्तश्रुतिसागरः सुभुजो दुर्धरो वाग्भीमहेन्द्रो वसुतो वसुः नैकरूपो बृहद्रूपस्य विविष्टप्रकाशनः ओजस्तेजोद्युतिरप्रकाशात्मा प्रतापनः वृद्धस्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः अमृतांशोद्भवो वानुष्यश बिन्दुसुरेश्वरः
औषधम्
जगदस्येतुस्सत्यधर्मपराक्रमः भूतभव्यपवन्नाथ पवनः पावनो नरः कामः कामकृतान्तः कामः कामप्रभुः युगादिकृद्युगावर्तो नैकमायो महाशनः अदृश्यो व्यक्तरूपश्च सहस्रजितनन्दजितो इष्टो विशिष्टश्चिष्टेष्टश्चिखण्डी नहुषो वृढः क्रोधः क्रोधकृत्कर्ता विश्ववाहुमीयः अच्युतः प्रतिप्राणप्राणदो वासवानुजः अपान्यतिरजिष्ठानोम प्रमत्तः प्रतिष्ठितः स्कन्धस्कन्धतरो दुर्यो वरदो वायुवाहनः वासुदेवो बृहद्भानुरादिदेव पुरन्दरः अशोकस्तारणस्तारशूरशौलिर्जनेश्वरः अनुकूलशतावर्तः पद्मी पद्मनिवेशनः पद्मनाभोरविन्दाक्ष पद्मगर्भशरीरभृद महर्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः अतुलश्चरभो भीमः समयज्ञो हविर्हरिः सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः वृक्षरोहितो मार्गो हेतुर्दामोदरः सः महीधरो महाभागो वेगवान् विराजनः उद्भवाक्षोणो देवश्रीगर्भः परमेश्वरः करणम् कारणम् कर्ता विकर्ता गहनो गुहः व्यवसायो व्यवस्थान संस्थानस्थानदो ध्रुवः परर्धिः परमस्पष्टस्तुष्टः पुष्टश्रुवेक्षणः रामो विरामो विरजो मार्गो नेयो नयो नयः वीरशक्तिमतांशेष्ठो धर्मो धर्मविदुत्तमः वैकुण्ठः पुरुषः प्राणः प्राणः प्रणवपृथुः हिरण्यगर्भश्चत्रुघ्नो व्याप्तो वायुरदोक्षयः ऋतुस्सुदर्शनकालः परमेष्ठी परिग्रहः उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः विस्तारस्तावरस्थाणो प्रमाणम् बीजमव्ययम् अर्थोऽनर्थो महाकोशो महाभोगो महाधनः अनिर्विण्णस्थविष्टो भूर्धर्मयोगो महामहः नक्षत्रनेक्षत्रीक्षमः काम समीहः यज्ञो महेज्यश्चतुरङ्गतिः सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् सुव्रतसुमुखसूक्ष्मसुघोषसुगतसुहृत मनोहरोचितक्रोधो वीरबाहुर्विदारणः स्वापनस्ववशो व्यापी नैकात्मा नैककर्मकृतो वत्सरो वत्सरो वत्सीरत्नगर्भोधनेश्वरः धर्मगुप्धर्मकृद्धर्मी सदतत्क्षणमक्षरम् अभिज्ञाता सहस्रांशुर्विधाता कृतलक्षणः गवस्तिनिमिसत्वस्तस्निमोभूतमहेशः आदिदेवो महादेवो देवेशो देवभृद्गुरुः उत्तरो भोपतिर्भोक्ता ज्ञानगम्यः पुरातनः शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः सोमपो मृतवः सोमपुर्यपुरुषतमः विनयो जयस्रत्यन्धो दाशारसात्मपतिः जीवो जीवताक्षी मुकुन्दो मितविक्रमः अम्भो विजयन्तात्मा महोदयोऽन्तरः अयो महारस्वाभाव्यो निरामितप्रमोदः आनन्दो नन्दोऽनन्दः सत्यधर्मः त्रिविक्रमः महर्षिकविराजार्यकृतज्ञो मेदिनीपतिः त्रिपदस्त्रिजराध्यक्षो महाशृङ्गकृताङ्गतो महावराहो गोविन्दस्वेण कनकाङ्गली कुह्यो गभीरो गहनो गुप्तश्चक्रकलादरः वेदास्वाङ्गोजितः कृष्णो दृश्यङ्कर्षणोचिरः वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः भगवान् भगवानन्दीवनमादिहरायुधः आदित्यो ज्योतिरादित्यस्तविष्णोतिसत्तमः सुसन्वाखण्डपरशुरदारुणो त्रिविणप्रदः निवस्पृत्सर्वदुर्व्यासो वाचस्पतिरोजः त्रिसामासामगस्ताम निर्वाणम् भेषजम् विषभ सन्न्यासकृत्समश्चान्तो निष्ठाजातिपरायणम् शुभाङ्गश्चान्दशः गोहितो गोप्रजगोप्ता वृषभाक्षो वृषप्रियाः अनिवर्ति निवृत्तात्मा संक्षेप्ता क्षेमकृशिवः श्रीवत्सवक्षा श्रीवास श्रीमति श्रीमताम्बरः श्रीधर श्रीश्रीनिवास श्रीनिधि श्रीविवावनः श्रीधर श्रीकरश्रेय श्रीमान् लोकत्रयाश्रयः स्वक्षस्वङ्गश्चदानन्दो नन्दिर्ज्योतिर्गणेश्वरः विजितात्मा विधेयात्मा सत्येर्निश्चिन्नसंश्रयः
उदीर्ण सर्वदश्चक्षुरनीहश्चाग्रस्थिरः
भूषयो भूषणो भूतिर्विशोकशोकनाशनः
अर्चिष्मानर्जकुम्भो विशुद्धात्मा विशोधनः
अनिरुद्धो प्रतिरथ प्रद्युम्नो मितविक्रमः
कारणे मिहावीरश्च वृषूरजनेश्वरः त्रिलोकात्मा त्रिलोकेश केशव केश्याहरिः
कामदेव
कामपादः कामीकान्तः कृतागमः
अनिर्देशवरविष्णुर्वीरोऽनन्तो धनञ्जयः ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः महाक्रमो महाकर्मा महातेजा महोरगः महाक्रतुर्महायज्वा महायज्ञो महाहविः
स्तव्यस्तव प्रियस्तोत्रं स्तुतिस्तोतारणप्रियः पूर्णः पूरयिता पुण्यः पुण्यकीर्तिनामयः मनोजवस्तीर्थकरो वसुवेता वसुप्रदः वसुप्रदो वासुदेवो वसुर्वसुनाभिः सद्गतिः सत्कृतिः सत्तासद्भूतिः सत्परायणः
शूरसेनो यश्रेष्ठस्सन्निवासस्वयामः भूतावासो वासुदेवः सर्वासु निलयो नः दर्पः दर्पदो दृप्तो दुर्धरोधा पराजितः विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यक्तश्रतमूर्तिशदानः
एको नैकः सवः कः किं यत्तत्पदमनुत्तमम्
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः सुवर्णवर्णो हेमाङ्गोवराङ्गश्चन्द्रनाङ्गजी वीरः विषमशून्यो धृताशीरजलश्चलः
अमानी मानदो मान्यो लोकस्वामी त्रिलोकद्रुः
सुमेधा मेधयोधन्यः सत्यमेधाधराधरः
तेजो वृषोद्युतिधरः सर्वशस्त्रब्राह्मणः
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपाद समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः
दुर्लभो दुर्गमो दुर्गो द्वावासो द्वार्या
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः
इन्द्रकर्मा
महाकर्मा कृतकर्मा कृतागमः
उद्भवः सुन्दरस्सुन्दो रत्नाभस्लोचनः
अर्को वाचसनशृङ्गी जयन्तः सर्वविजयी
सुवर्णबिन्दुरक्षोभ्यः सर्वभागीश्वरेश्वरः
महारथो महाभ्यर्थो महाभूतो महाभिः
कुन्दः 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 पर्जन्यपावनो निलः
अमृतांशो मृतवपुः सर्वज्ञः सर्वतोम्भः
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुरापणः
न्यक्रोधो दुम्बरोश्चत्तश्चाणूरान्ध्रनिशूनः
सहस्रार्चिः सप्तयुः सप्तविधाः सप्तवाहनः
अमूर्तिरनवो शिन्त्यो भयकृद्भयनाशनः
अणुर्बृहत्कृतस्थूलो गुणवृन्निर्गुणो महान्
अधृतस्वधृतस्वास्य प्राग्वंशो वंशवर्धनः
भारभृत्कथितो योगी योगीश सर्वकामणः
आश्रमश्रमणः
सुवर्णो वायुवाहनः
धनुर्धरो धनुर्वेदो दण्डो दमयितादमः
अपराजितः सर्वसहो नियन्ता नियमो यमः
सत्त्ववान् साध्विकः सत्यः सत्यधर्मपरायणः
अभिप्रायः प्रियाहोरः प्रियकृत्प्रीतिवर्धनः
विहाय सगतिर्ज्योतिःसुरुचिर्हुतभुग्विभुः
रविर्विलोचनः
सूर्यः सवितारविलोचनः
अनन्तो
हुतभुभोक्ता सुहदो निग्रलोग्रः
अनिर्विण्यः
सदामर्षि लोकाधिष्ठानमद्भुतः
सनातनतमः
कपिलः कपिलव्ययः
स्वस्तिः
स्वस्तिकृस्वस्ति
स्वस्तिभुस्वस्तिरक्षणः
अरौद्रः
कुण्डलीशग्लीविक्रम्योषिदशासनः
शब्दादिकशब्दशः
श्रीशिरश्चर्वरीकरः
अक्रूरः
पेशलो दक्षो दक्षिणः
क्षम्याम्बरः
विद्वत्तमो
वीतवयः
पुण्यश्रवणकीर्तनः
उत्तारणो
दुष्कृत्यः
पुण्यो दुःस्वप्नः वीरः रक्षणस्तन्तो जीवनः पर्यवस्थितः अनन्तरूपो नन्दश्रीर्मितमन्निर्भयापः चतुरस्रो गभीरात्मा विदिशो व्याधिशोजितः अनादिर्भूर्भो लक्ष्मीर्सुवीरोरुचिराङ्गदः जननो जनजन्मादिर्भीमो भीमपराक्रमः आधारनिलयोधाता पुष्पहास प्रजागरः ऊर्ध्वगसत्पदाचार प्राणद प्रणवर्पणः प्रमाणम् प्राणनिलय प्राणवृत्प्राणजीवनः
तत्त्वम् तत्त्वविवेकात्मा
जन्मवृत्युजरादिकः भूर्भुवस्वस्तरुस्तारस्तभिधा प्रभिधामहः यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः यज्ञभृद्यज्ञभृद्यज्ञी यज्ञभुवि यज्ञसाधनः यज्ञान्तकृति यज्ञभूयो मन्नमन्नादेव च आत्मयो निष्वयम् जातो वैधानस्तामगायनः देवमीनन्दनस्त्रक्षिलीशपापनाशनः
शङ्खभृन्दन्दकीशीशाङ्गलन्माकलाशः तथाङ्गवाणिरक्षोभ्यः सर्वप्रहरणायुधः सर्वप्रहरणायुध ॐ नमः।